इमां ते धियं प्रभारे महो महीमस्य स्तोत्रे धिनायत्तानजे तमोत्सवे च प्रसवे च सासहिमिन्द्रम् देवासस्तमसामदन्ननो अस्य श्रवाणद्यस्तप्तविभ्रदिद्या वाक्षामा पृथिवी दर्शनम् वपोः अस्मे सूर्यानम् रवसाभिचक्षे श्रद्धेयमिन्द्रजनतो विदर्तुरम् तरम् स्वारथम् अघवन्ताव सातये चैत्रम् यन्ते अनुमदामसङ्घमे आदान इन्द्रमनसा पुरस्कृतत्वा यद्भ्यो मघवन् शर्म यच्छनः भजञ्जाये भत्वया युजामृतमस्माकमम् समुदमा भरे भरे अस्मभ्यामिन्द्रपरेव सुगम् ग्रेधिप्रशत्रूणाम् मघवन्नृष्ट्यारुज नानाहित्वाहवमानाजनायिमे धनानाम् धत्तरवसा विपन्यवाः अस्माकम् स्मारसमादिष्टसातये चैत्रम् हीन्द्रनिभृतम् मनस्तव योजिता बाहु अमेदक्रदस्यमः कर्मन् कर्मन् शतमो निष्खलम् करः अकल्पयन्द प्रतिमा नमो जसाधा जनामित्पायम् जयसिषासवाः बुद्धे सतात्माघवन्नुच्च भूय समुत्सहस्रानिश्रवाः मात्रम् त्वाधिगणादित्रिणे वैद्यथा वृत्ताणि जिघ्रसे पुनन्दर त्रिवीक्षिधातु प्रतिमा नमोजसस्तिस्रो भूमेन्द्रपते त्रीणि लोचना अतीतम् विश्वम्भुगारम्भवक्षिथा सतुरिन्द्रजनुषा सनादसि त्वाम् देवेषु प्रथमम् भवामहे ेवन्नः कालमोपमन्यमद्भितमिन्द्रः कृणोद प्रसवे रथम् पुरः त्वञ्जीजे धनधनारुरोचिताद्भेष्वाजामघवन्महत्सु च त्वामुग्रमवसे संसेसीमस्यथानयन्द्रहवनेषु चोदय विश्वाहेन्द्रो अधिभक्तानो अस्त्वपरिकृतास्तलियामवायम् मित्रो वरुणो मामहन्तामदीदिः सिन्धुः पृथिवी उदद्यौः